अथ श्रीगोपाल सहस्रनाम स्तोत्रम् ओम क्लीम देवः कामदेवः कामबीजशिरोमणि
श्रीगोपालो महीपालः सर्ववेदांगपारगः धरणीपालको धन्यपुण्डरीकसनातनः गोपतिर्भूपतिशास्ता प्रहर्ता विश्वतो मुखः आदिकर्ता महाकर्ता महाकालप्रतापवान् जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः मत्स्यो भीमाकुः भर्ता हर्ता वाराहमूर्तिमान् नारायणो हृषीकेशो गोविन्दो गरुडध्वजः गोकुलेन्द्रो महाचन्द्रः सर्वरीप्रियकारकः कमलामुकलोलाक्षः पुण्डरीकसुभावः दुर्वासाकपिलो भौमः सिन्धुसागरसङ्गमः गोविन्दो गोपतिर्गोत्रकालिन्दीप्रेमपूरकः गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः नन्दादिगोकुलत्राता दाता दारिद्र्यभञ्जनः सर्वमङ्गलदाता च सर्वकामप्रदायकः आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः गजगामी गजोद्धारी कामी कामकलानिधिः कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः मालाकारग्रपाकार कोकिलास्वरभूषणः रामो नीलाम्बरो देवो हरिदुर्दमवर्णः सहस्राक्षपुरी भेत्ता महामारी विनाशनः शिवशिवतमो भेत्ता बलारातिप्रभुजकः कुमारी वरदायी च वरेण्यो मीनकेतनः नरो नारायणो धीरो राधापतिरुदारधी श्रीपति श्रीनिधि श्रीमान् मापति प्रतिराजः वृन्दापति कुलग्रामी धामी ब्रह्म सनातनः रेवती रमणो रामश्चन्द्रश्चारुलोचनः रामायण शरीरोऽयं रामे रामश्रियपतिः धाराधी राधा चित्तप्रमोदकः राधा रतिसुकोपेतो राधा मोहनतत्परः राधा वशीकरो राधा हृदयाम्भोजषट्पदः राधालिङ्गनसम्मोहो राधा नर्तककौतुकः राधा सञ्जातसम्प्रीतो राधा कामफलप्रदः वृन्दापतिः कोकनिधिः कोकशोकविनाशकः चन्द्रापतिश्चन्द्रपतिश्चण्डको दण्डभञ्जनः रामो दाशरथी रामो भृगुवंशसमुद्भवः आत्मा रामो जितक्रोधो मोहो मोहान्धभञ्जनः वृषभानुर्भवो भाव काश्यपी करुणानिधिः कोलाहलो हलीहाली हलिहलहरप्रियः राधामुखाब्जमातण्डो भास्करो रविजो विदुः विधिर्विधाता वरुणो वारुणो वारुणी प्रियः रोहिणी हृदयानन्दी वासुदेवात्मजोपली नीलांबरो रोहिणेयो जरासंध पदोमलः नागो नवाम्बो विरदो भीरहा वरदो बली गोपथो विजयी विद्वान् शिविष्ट सनातनः परशुराम वचो ग्राही भरग्राही खगः दमघोषोपदेष्टाचा रथग्राही सुदर्शनः वीरपत्नीयशस्त्रार जराव्याधिविघातकः द्वारकावासतत्त्वज्ञो हुताशनभरप्रदः यमुनावेगसंहारी नीलाम्बरधरप्रभु निगुसरासनो धन्वी गणेशो गणनायकः लक्ष्मणो लक्षणो लक्ष्यो रक्षो वंशविनाशनः वामनो वामनीभूतो वामनो वामनारुहः यशोदानन्दनः कर्ता यमुनार्जुनमुक्तिरः उरुखली महामानी दानवद्धा वैषमी भक्तानुकारी भगवान् केशवो चलधारकः केशिहा मधुहा मोहि वृषासुरविघातकः अघासुरविनाशी च भूतनामोक्षदायकः उब्जा विनोदी भगवान् कंसमृत्युर्महामघी अश्वमेधो वाजपेयो गोमेधो नरमेधवान् गन्धर्वकोटिलावण्यश्चन्द्रकोटिसुशीतलः रविकोटिप्रतीकाशो वायुकोटिमहाबलः ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः कमला कमलाक्षश्च कमलामुखलोलुपः कमलाव्रतधारी च कमलावाक्रन्दः सौभाग्याधिकचित्तोऽयं महामायी महोत्कटः तारकारी सुरत्राता मारी चक्षोभकारकः विश्वामित्रप्रियो दान्तो रामो राजीवलोचनः लङ्काधिपकुलध्वंसी विभीषणवरप्रदः सीतानन्दकरो रामो वीरो वारिनिबन्धनः हरदूषणसंहारी साकेतपुरवासनः चन्द्रावलीपतिकुलाकेशीकंसभदोमरः माधवो मधुवा माध्वी माध्वीको माधवी मयूः मुञ्जाटवीयायमनो धेनुकारिधरात्मजः वंशीवटविहारी च गोवर्धनवनाश्रयः तथा तालबलोद्देशी भाण्डीरवनशङ्खः तृणावर्कलताकारी वृषभानुसुतापतिः राधा प्राणसमो राधा वदनाब्ज मधुव्रतः गोपीरञ्जन दैवज्ञो लीलाकमलपूजितः क्रीडाकमलसन्दोः गोपिका प्रीतिरञ्जनः रञ्जको रञ्जनो रङ्गो रङ्गीरङ्गमहीरुहः कामः कामारिभक्तोऽयं पुराणपुरुषाकविः नारदो देवलो भीमो बालो बालमुखाम्बुजः अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरमुनिः ऋषभपर्वतो ग्रामो नदी पवनवल्लभः पद्मनाभस्सुरज्येष्ठो ब्रह्मा रुद्रो हि भूषितः गणानां प्राणकर्ता च गणेशो ग्रहिणो ग्रही गणाश्रयो गणाध्यक्ष कोटीकृतजगत्त्रयः यादवेन्द्रो द्वारकेन्द्रो मथुरा वल्लभोधुरी।